एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल सर्वकारेण ऊर्जसः व्ययीकरणेन वर्धनेन निर्यातेन च सह सम्बद्धा एतद् विक्रमवर्षीया रणनीतिः सार्वजनिकृता वर्तते। आगामी दश वर्षाणाम् अभ्यन्तरे पाचन इन्धनस्य कृते प्रदीयमानस्य अनुदानस्य निरस्तीकरणं कृत्वा वैद्युत चुल्लिकायाः कृते अनुदानस्य प्रदानस्य योजनया सह सर्वकारेण ऊर्जसः व्ययीकरणस्य वर्धनस्य निर्यातस्य च एतद् विक्रमवर्षीया रणनीति सार्वजनिकृता वर्तते। वैद्युत चुल्लिकायाः कृते अनुदानं प्रदाय स्वच्छोर्जसः व्ययस्य वर्धनस्य च लक्ष्येण सर्वकारेण रणनीतिरेषा सार्वजनिकृता स्थिति ऊर्जो मन्त्रालयेन स्पष्टीकृतं वर्तते। विप्रेषणस्य माध्यमेन देशे प्रविष्टायाः विपुल धनराशेः पाचनेन्धनस्य कृते जायमानायाः व्ययीकरणस्य प्रवृत्तेः निरोधं कृत्वा वित्तस्य संरक्षणस्य स्वदेशे एव स्थापनस्य च उद्देश्येन मन्त्रालयेन ऊर्जसः व्ययीकरणेन वर्धनेन निर्यातेन च सम्बद्धा एतद् विक्रमवर्षीया रणनीतिः निश्चिता वर्तते। अस्य कार्यस्य कृते उद्योग मन्त्रालयाय दायित्वं निर्धारितम् अस्ति। प्रधानमन्त्रिणा बालेन्द्र सायेन द्वात्रिंशद्वारं सगरमाथा शिखरस्य सफलरूपेण आरोहणं विहितवन्तं। कामिरिता शेर्पा इत्यमुम् एकादशवारम् आरोहणं कृतवतीं लाक्वा शेर्पा इतीमां च प्रति वर्धापनानि सम्मानश्च व्यक्ताः वर्तन्ते। एक्स इति सामाजिक सञ्जालस्य माध्यमेन ह्य प्रधानमन्त्रिणा सायेन आरोहिणां सफलीभवनेन नेपालस्य पर्वतीय पर्यटनम् इतोऽपि विश्वसनीयं गौरवपूर्णम् आकर्षकं च कृत्वा अन्तर्राष्ट्रिय जगति नेपालस्य परिचय अधिकं जाज्वल्यमानो विधास्यते इति विश्वासः व्यक्तोऽस्ति। शेर्पा इत्यनेन ह्य प्रातः द्वादशकलोत्तर दशवादने सगरमाथा शिखरस्य द्वात्रिंशद्वारं सफलतापूर्वकम् आरोहणं विधाय स्वकीयायाः एव विश्वकीर्तेः पुनः नवीकरणं विहितं वर्तते। एवमेव हिमालयस्य राज्ञीरूपेण परिचितया शेर्पा इत्यनया ह्य एव प्रातः सार्धनववादने सगरमाथा शिखरस्य आरोहणं कृत्वा महिलासु सर्वाधिकवारं सगरमाथा शिखरस्य आरोहिषु जनेषु स्वस्य नाम अंकितं वर्तते। एवमेव सशस्त्र प्रहरी बलस्य सहायक हवलदार पदीयया अनिता कार्की इत्यनया सहायक निरीक्षकेण निमा डिक्की शेर्पा इत्यनया च सफलतापूर्वकं सगरमाथा शिखरस्य आरोहणं विहितं वर्तते। नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा गतति विशेष महाधिवेशने असमागतान् नेतृन् अपि सहैव नीत्वा दलम् अग्रे वर्धिष्यते। प्रजातान्त्रिक विचार समाजस्य स्थापना दिवसस्य अवसरे ह्य आयोजिते सामयिक राजनीतौ नेपाली कांग्रेस दलस्य भूमिका इति विषयके कार्यक्रमे सभापति थापा विशेष महाधिवेशने असमागतान् नेतृन् केन्द्रीय समितौ अन्य समितिषु च समावेक्ष्यन्ते इति उदैरयत। कार्यक्रमे दलस्य महामन्त्री प्रदीप पौडेल संसदीय व्यवस्थायां संसदं प्रति प्रधानमन्त्रिणा उत्तरदायित्वेन भाव्यमिति उक्त्वा वेदनाम अकरोत। पूर्वेद्युः मदनाश्रित स्मृति दिवसः आराष्टं विभिन्नान् कार्यक्रमान् आयोज्य समायोजितो वर्तते। स्मृति दिवसस्य अवसरे पूर्वेद्युः नेकपा एमाले दलेन बल्खुवर्तिनी मदननगरे आयोजितायां स्मृतिसभायां दिवंगतं नेतृद्वयं मदन भण्डारिणं जीवराज आश्रितं च प्रति श्रद्धांजलिः व्यक्तोऽस्ति। स्मृतिसभायां पूर्वराष्ट्रपतिः विद्यादेवी भण्डारी वर्तमान समाह्वयान् प्रति गभीरं भवितुम् एमाले दलस्य नेतृन् अन्वरुणत्। तदवसरे पूर्वराष्ट्रपतिः भण्डारी एमाले दलेन जनतया सह विद्यमानं सम्बन्धं सुदृढं कृत्वा राष्ट्रस्य जनतायाश्च हितं सर्वोपरि संस्थाप्य अग्रे वर्धनस्य आवश्यकता स्थिति प्रत्यपादयत्। भक्तपुरस्य चांगुनारायण नगरपालिकायाः पञ्चमवडा क्षेत्रस्य छालिङ गोकुलधामस्थितस्य मत्स्यनारायण मन्दिरस्य परिसरे शतत्रय वर्षाणां प्राचीना एकमासं यावत् सञ्चाल्यमाना मेला प्रारब्धास्ति। पुरुषोत्तम मासस्य अवसरे जायमानायाम् अस्यां मेलायां प्रवचनं भजन कीर्तनादीनि श्रीमन्नारायण भगवतः पूजार्चनं पुरूषोत्तम महात्म्यस्य प्रकाशनम् च भवन्ति। लघु खोलिका नदीनाम् संगमस्थले विद्यमानम् तत्क्षेत्रम् त्रिवेणीधाम्ना च प्रसिद्धम् वर्तते। चितवन जनपदस्य इच्छा कामना ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य कुलवांग स्थानीय वनस्य छत्राकस्य भक्षणेन जनद्वयं मृतं वर्तते। मृतयो नववर्षीया नमुना चेपाङ, एकादश वर्षीय संजय चेपाङ च स्तः। जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकस्य रविन्द्र खनालस्य अनुसारेण नमुना ज्येष्ठस्य प्रथम दिवसे मृतास्ति चेद् संजय परह्यः रात्रौ उपचारस्य क्रमे मृत्यु वर्तते। श्यामबहादुर चेपाङ इत्यस्य पञ्च जनानां परिवारेण वन्य क्षत्राकः भक्षितः आसीत् इति समाचाराः।